गुरुब्रह्मा गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र मनसः लक्षणं लक्षणवाक्यं कीदृशम् अस्ति इति दृष्टवन्तः तत्र मनसः लक्षणं सुखादि उपलब्धिसाधनम् अपि इन्द्रियं मनः तत्र दलद्वयम् अस्ति तत्र मनः मनसि तत्र मनः इति लक्ष्यं लक्ष्ये लक्षणं भवेत् तत्र लक्ष्ये मनसि तत्र कारणत्वं नाम तत्र प्रत्यक्ष उपलब्धिसाधनं साधनम् इत्युक्ते कारणम् इति नाम कारणत्वं मनसि अस्ति कारणत्वम् इति जनकता कस्य जनकता अथवा इत्युक्ते तत्र प्रत्यक्षं जनयति इति कृत्वा तत्र मनः प्रत्यक्षं जनयति कस्य प्रत्यक्षं जनयति सुखस्य प्रत्यक्षं जनयति सुखम् इति विषयः सुखविषयकज्ञानम् इति प्रत्यक्षम् इन्द्रियेण लब्धं ज्ञानं प्रत्यक्षं तत्र अत्र इन्द्रियः इन्द्रियमस्ति मनः तत्र इन्द्रियेण लब्धं ज्ञानं प्रत्यक्षं प्रत्यक्षम् इति ज्ञानस्य विषयः सुखम् अतः सुखविषयकज्ञानं तत् केन तस्य जन्म भवति इत्युक्ते मनसा भवति मनः कारणमस्ति साधनमस्ति अतः सुखादि उपलब्धिप्रत्यक्षसाधनं कारणं मनः इति कृत्वा तत्र एतादृशं चित्रं भवति अतः तत्र चित्रम् एकवारं चित्रस्य चर्चा कृत्वा तत्र अग्रे सरामः तर्हि तत्र राजीभगे नमस्कारः
नमस्कारः
नमस्कारः भगिनि अस्तु तर्हि तत्र योगेन्द्रमहोदय तत्र आरम्भं करोति वा तत्र सुखमपि प्रत्यक्षं तत्र सुखं किम् अस्ति प्रत्यक्षं किम् अस्ति इति एकवारं वदति वा नाम अहं सुखी इति ज्ञानम् इति चिन्तयतु तर्हि तत्र विषयः कः तत्र
विषयः सुखं
सुखं तर्हि सुखे किं किमस्ति सुखं विषयः अस्ति चेत् सुखे
सुखे विषयता अस्ति
विषयता अस्ति समीचीनं सुखम् इति विषय सुखे विषयता अस्ति विषयता निरूपितविषयिता ज्ञाने अस्ति अत्र ज्ञानं कीदृशं ज्ञानम्
ज्ञानं प्रत्यक्षम् अस्ति
प्रत्यक्षं ज्ञानं तत्र ज्ञानं कदा प्रत्यक्षम् इति वदामः यदा ज्ञानं
मनसा प्रत्यक्षं भवति
अत्र मनसा प्रत्यक्षं भवति यत्र इन्द्रियेण जन्यं ज्ञानम् अस्ति तत्र तद् ज्ञानं वयं तत्र प्रत्यक्षम् इति वदामः समीचीनं अत्र मनसा जन्यं ज्ञानं प्रत्यक्षम् अपि तत्र प्रत्यक्षम् इति ज्ञानं तत्र कारणम् अस्ति वा कार्यमस्ति वा ज्ञानम् अत्र नाम मनसा प्राप्तं ज्ञानं नाम तत्र मनः कारणं वा अथवा ज्ञानं कारणं वा
प्रायः ज्ञानं कारणं
नाम मनः नास्ति चेत् ज्ञानं भवति वा
ज्ञानं न भवति
तर्हि किं कारणं किं कार्यं
मनः कारणं प्रत्यक्षं कार्यं
कार्यमस्ति तर्हि कारणम् इति तस्य अन्यनामक नाम अस्ति जनकः तर्हि मनः कारणमस्ति चेत् मनसि कारणता अस्ति अथवा जनकता अस्ति प्रत्यक्षमिति कार्यमस्ति तत्र कार्यता अस्ति अथवा अन्यनाम जन्यता अस्ति जन्यता नाम कार्यं कार्यता अतः तत्र सुखम् इति आरभ्य मनः पर्यन्तं गच्छतु तर्हि तत्र सुखनिष्ठ इति
सुखनिष्ठविषयता निरूपिता विषयता आश्रय ज्ञानं प्रत्यक्षम्
तन्निष्ठ
प्रत्यक्षा निष्ठ प्रत्यक्षज्ञानं निरूपिता जनकता आश्रयः मनः
उत्तमं महोदय धन्यवादः इति अस्ति इति अस्ति किन्तु तत्र स्मर्तव्यं नाम एतत्तु एकमेव दलमस्ति एतत् लक्षणं नास्ति तत्र अन्यत् अन्यत् दलमपि अस्ति तत्र नरसिंहमहोदय अन्यत् दलं किमस्ति
इन्द्रियत्वम् अस्ति महोदय
इन्द्रियत्वम् अस्ति तर्हि तत्र इन्द्रियत्वमपि योजयामश्चेत् तत्र मनसि तत्र इन्द्रियत्वम् अपि अस्ति यतोहि तत्र मनः इन्द्रियं तत्र इति अपि योजनीयम् अस्ति तत्र अस्तु तर्हि धन्यवादः महोदय तर्हि तत्र इन्द्रियत्वमपि अस्ति इन्द्रियत्वमपि अस्ति अपि जनकता अथवा जनकत्वमपि अस्ति कीदृशी जनकता इत्युक्ते तत् सर्वं यदि वदामः तत् सर्वं तादृशी जनकता अपि इन्द्रियत्वं धर्मद्वयम् एव तत्र मनसः लक्षणं भवति इति अस्ति अस्तु तर्हि अग्रे सरामः तर्हि अग्रे पठामः एतावत् तत्र मनसः लक्षणम् अपि तत्र गृहपाठरूपेण तत्र सर्वे चित्राणि लिखन्तु इति आसीत् एतावत् केचन जनाः प्रेषितवन्तः अन्ये ये न प्रेषितवन्तः कृपया अग्रिमे सप्ताहे अस्मिन् सप्ताहे प्रेषयन्तु तदनन्तरं तस्य चर्चा अग्रिमे वर्गे कुर्मः तर्हि अस्तु तर्हि अग्रे सरामः तत्र नूतनतया धनश्री भगिनी नमस्कारः जयलक्ष्मी भगिनी नमस्कारः नमस्कारः अस्तु तर्हि तत्र विमला भगिनी अग्रे तत्र अत्र च वायुलक्षणे इव इति तथा आरभ्य पठति वा
महोदय अत्र च वायुलक्षणे इव द्वे दले वर्तेते सुखादिप्रत्यक्षसाधनत्वमात्र उक्तौ आत्मनि अतिव्याप्तिः प्रत्यक्षं प्रति आत्मनः अपि कारणत्वात् अतः इन्द्रियत्वं देयम् आत्मनि न इन्द्रियत्वमिति नातिव्याप्तिः इन्द्रियत्वमात्र उक्तौ चक्षुरादौ अतिव्याप्तिः अतः सुखादिप्रत्यक्षजनकत्वमपि दातव्यम् चक्षुः रूपप्रत्यक्षजनकं न तु सुखग्राहकमिति न अतिव्याप्तिः तत्र यथा वायुलक्षणे वयं दलद्वयम् अस्माभिः चर्चितं तथा एव मनसः लक्षणे अपि सुखादिप्रत्यक्षसाधनत्वं मात्र न वक्तव्यं यतोहि आत्ममपि सुखस्य प्रत्यक्ष सुखस्य प्रत्यक्षे आत्मा अपि आवश्यकमस्ति
नाम आत्मा अपि तत्र प्रत्यक्षम् इति ज्ञानं प्रत्यक्षज्ञानं प्रति आत्मा अपि कारणमस्ति वा
आत्मा कारणमस्ति प्रत्यक्षज्ञानस्य जनकत्वे
हा तर्हि आत्मा कीदृशकारणमस्ति कीदृशं कारणमस्ति प्रत्यक्षज्ञानस्य तत्र वयं गतवर्गे चर्चितवन्तः तत्र कार्यमस्ति
समवायिकारणं
हा समवायिकारणं यतोहि प्रत्यक्षम् इति ज्ञानं गुणः
समवायसम्बन्धेन आत्मनि अस्ति इति
उत्तमं भगिनि समवायिकारणमस्ति तर्हि केवलं यदि वयं सुखादि उपलब्धिकारणम् अथवा सुखादिप्रत्यक्षसाधनत्वम् इति वदामः तत् साधनत्वम् आत्मनि अपि वर्तते यतोहि कारणत्वम् आत्मा अपि कारणम् अस्ति इति कृत्वा आत्मनि अपि कारणत्वम् अथवा साधनत्वं वर्तते अतः केवलं प्रथमदलं वदामश्चेत् तत्र अतिव्याप्तिदोषः अतिव्याप्तिः भवति इति कृत्वा लक्षणवाक्ये अतिव्याप्तिदोषः भवति नाम तद् लक्षणवाक्यं नास्ति इति भवति एकमेव दलं प्रथमदलमेव अस्ति चेत् अग्रे
द्वितीयदलम् अस्ति इन्द्रियत्वम् इति केवल इन्द्रियत्वम् इति वदामः चेत् चक्षु श्रोत्र एते सर्वे अपि इन्द्रियाणि सन्ति, चक्षुरसना श्रोत्रं
घ्राणेन्द्रियं श्रोत्रेन्द्रियं,
तर्हि तत्र अतिव्याप्तिदोषः भवति. इन्द्रियस्थमेव वदामः चेत् मनसः केवलं न केवलं मनसः मना इन्द्रिय इन्द्रियः नास्ति, परन्तु अन्य इन्द्रियाः अपि सन्ति, इन्द्रियाणि अपि सन्ति. तेन कारणेन अपि दलद्वयं वयं दक्षिणवाक्ये वदामः, तर्हि तद् मनसः लक्षणं
यदि इन्द्रियं तत्र प्रथमदलम् एव वदामश्चेत् अतिव्याप्तिदोषः भवति, नाम आत्मनि अतिव्याप्तिदोषः भवति. इदानीं तदा इदानीं तत्र दलद्वयं केवलं दलद्वयं द्वितीयदलं वदामश्चेत् तत्रापि अतिव्याप्तिदोषः भवति, यतोहि चक्षुः चक्षौ तत्र चक्षु अथवा घ्राणेन्द्रिये अतिव्याप्तिः भवति, इन्द्रियत्वं तत्रापि अस्ति. इदानीं तत्र एतदपि वक्तव्यम् अस्तु, प्रथमदलमेव वदामश्चेत् आत्मनि अतिव्याप्तिदोषः अतिव्याप्तिः भवति केवलं प्रथमदलं वदामश्चेत्. इदानीं द्वितीयदलस्य वदनेन किम् एषः दोषः निवार्यते वा? इन्द्रियं नास्ति हा इति अत एव आत्मनि न इन्द्रियत्वम् इति न अतिव्याप्ति दोषः. नाम यदि द्वितीयदलं स्थापयामः प्रथमदल केवलं प्रथमदलं यदि वदामः तदा यः दोषः अभवत् सः दोषः इदानीं निवार्यते. नाम आत्मा इन्द्रियं नास्ति इति कृत्वा अतः तत्र इदानीं द्वितीयदलेन एषः दोषः निवारितः अस्ति, निवारितः अस्ति. इदानीम् अतिव्याप्तिदोषः नास्ति. अपि इन्द्रियत्वमात्रोक्तो चक्षुरादौ अतिव्याप्तिः, अतः सुखादिप्रत्यक्षजनकत्वमपि धातव्यं. यदा यदा तद् वदामः इदानीं किं तत्र इन्द्रियाणि या अन्यानि इन्द्रियाणि यानि सन्ति तेषु अतिव्याप्तिः आसीत् द्वितीय केवलं द्वितीयदलस्य मात्रवदनेन, इदानीं किं सः दोषः निवारितः भवति वा प्रथमदलस्य स्थापनेन?
आम्, यतोहि चक्षुः घ्राणं एतैः इन्द्रियैः सुखं न ग्राह्यते.
हा इति समीचीनम्. अतः चक्षुः रूपप्रत्यक्षजनकम् अस्ति सत्यं, किन्तु सुखग्राहकम् इति नास्ति. हा सुखग्राहकम् इति नास्ति तत्र. हा अतः तत्र अतिव्याप्तिदोषः यदस्ति तद् निवार्यते, निवारितः भवति. समीचीनं, धन्यवादः भगिनि, उत्तमं. तत्र गतवर्गे वयं चिन्तितवन्तः तत्र यदि वयं चित्रं पश्यामः, किमपि चित्रं पश्यामः, चित्रं तु चक्षुषा पश्यामः, तर्हि तत्र किं चक्षुः चक्षुषा पश्यामः सुन्दरं चित्रम् अस्ति इति कृत्वा तत्र अस्माकं मनसि तत्र सुखं जायते, सुखस्य ज्ञानमपि भवति मनसा, किं तर्हि तत्र चित्रमपि कारणं भवति खलु सुखं प्रति, सुखस्य ज्ञानं प्रति चित्रमपि कारणं भवति, चक्षुः अपि कारणं भवति. अतः किमर्थं तत्र अत्र चक्षुः तत्र किं चक्षुः कारणं नास्ति वा तत्र प्रत्यक्षज्ञानं प्रति? इत्युक्ते अस्ति, कारणमेव अस्ति. स नैयायिकाः वदन्ति आमां निमित्तकारणम् अस्ति, यतोहि तत्र ज्ञानं प्रति प्रत्यक्षज्ञानं प्रति तत्र आत्मा इति समवायिकारणमस्ति. अपि तत्र मनसः आत्मनोः संयोगः यदस्ति तद् असमवायिकारणं भवेत् इति एतदस्ति. अपि यत् अन्यानि कारणानि सर्वाणि तत्र निमित्तकारणानि, चक्षुः अपि निमित्तकारणं. किन्तु इदानीं तत्र प्रश्नः उदेति, अस्तु तर्हि तत्र चक्षुः अपि कारणं प्रत्यक्षं प्रति, सुखस्य प्रत्यक्षं प्रति चक्षुः अपि कारणम् अस्ति, अपि तत्र इन्द्रियमपि अस्ति. सत्यं नाम चक्षुः सुखं न सुखग्राहकः नास्ति, किन्तु चक्षुः कारणं तु अस्ति सुखस्य ज्ञानं प्रति. तर्हि किं करणीयम् इति नाम तत्र अतिव्याप्तिदोषः न भवति वा नाम तत्र चक्षुमध्ये तत्र अतिव्याप्तिदोषः यतोहि तत्र चक्षुः यदस्ति तत्र तस्मिन् तत्र इन्द्रियत्वमपि अस्ति अपि तत्र प्रत्यक्षजनकत्वं सुखादिप्रत्यक्षजनकत्वमपि अस्ति इति तु सर्वे नैयायिकाः अङ्गीकुर्वन्ति आमाम् एतत् सर्वम् अस्ति किन्तु तत्र नियमः वर्तते नाम यद्यपि एतत् सर्वम् अस्ति किमस्ति तत्र लक्षणवाक्ये यदि कारणत्वं साधनत्वम् इति वदामः तत्र किं भवेत् साक्षात् कारणं भवेत् नाम परम्परया कारणं नास्ति साक्षात् कारणं नाम तत्र मनः एव तत्र साक्षात् कारणमस्ति सुखं प्रति यद्यपि चक्षुः चित्रस्य प्रत्यक्षं प्रति साक्षात् कारणमस्ति चक्षु नास्ति चेत् तत्र चित्रं न दृश्यते किन्तु अतः चक्षुः चित्रस्य ग्राहकं साक्षात् तत्र ग्राहकम् अस्ति चित्रस्य तत्र रूपस्य प्रत्यक्षज्ञानं प्रति साक्षात् कारणम् अस्ति तत्र चक्षुः किन्तु सुखं एतत् सर्वं प्रति साक्षात् कारणं नास्ति इति कृत्वा लक्षणवाक्ये तत्र नियमः अस्ति यत्र कारणमिति उक्तम् अस्ति तत्र साक्षात् कारणं भवेत् न तु परम्परया कारणम् अपि तत्र असाधारणकारणं भवेत् नाम ईश्वर इच्छा प्रयत्नः ज्ञानम् इति साधारणकालः दिक् एतत् सर्वम् अग्रे गत्वा वयं द्रक्ष्यामः तत्र साधारणकारणानि सन्ति साधारणकारणानि तत्र लक्षणवाक्ये न आगच्छन्ति तर्हि असाधारणकारणं भवेत् अपि तत्र साक्षात् कारणं भवेत् नाम तत्र तेनैव तत्र लब्धमस्ति ज्ञानम् इति कार्यम् इति तादृशकारणमेव कारणत्वमेव लक्षणवाक्ये आगन्तुम् अर्हति इति कृत्वा तत्र चक्षुः यद्यपि निमित्तकारणमस्ति सुखं प्रति सुखस्य प्रत्यक्षं प्रति किन्तु तत् साक्षात् कारणं नास्ति इति कृत्वा तत्र अतिव्याप्तिदोषः नास्ति नाम तत्र लक्षणवाक्ये तस्य प्रवेशः नास्ति नैयायिकानां मते इति अस्ति अस्तु योगेन्द्रमहोदय प्रश्नः
आं महोदय चक्षुः रूपजनकप्रत्यक्षं भवति सुखग्राहकं न तु सुखग्राहकं मनः सुखग्राहकम् अस्ति परन्तु सुखस्य ज्ञानं तु आत्मानि भवति तदा आत्मा कुत्र स्थापयितुं शक्नुमः
आत्मा सर्वत्र अस्ति विभुद्रव्यमस्ति आत्मा समवायिकारणम् अस्ति खलु
उपरितने चित्रम् अस्ति उपरितने भागे तत्र आत्मा कुत्र स्थापयितुं शक्नुमः
आत्मा तत्र अत्र केवलं ज्ञानमिति अस्ति खलु तत्र प्रत्यक्षमिति ज्ञानं कुत्र अस्ति
आम्
तस्य आशयः कः
आत्मा
अत्र आत्मा इति आश्रयः भवति तत्र
किन्तु
अतः तत्र आत्मा इति तत्र प्रत्यक्षम् इति अधोभागे आत्मा इति स्थापयितुं शक्नुमः किन्तु तत्र तस्य लक्षणवाक्ये तस्य आवश्यकता नास्ति इति चित्रे न लिखितं तावदेव
अस्तु अस्तु
किन्तु तत्र प्रत्यक्षम् आत्मनि अस्ति इति
अस्तु धन्यवाद महोदय
अस्तु अतः तत्र धरद्वयमस्ति चेत् तत्र न वा अतिव्याप्तिदोषः आत्मनि न वा अतिव्याप्तिदोषः इन्द्रियेषु इति कृत्वा तत्र केवलं मनसि एव तत्र लक्षणं घटते अतः तत्र अतिव्याप्तिदोषः निवारितः अव्याप्तिदोषः अपि नास्ति अपि तत्र असम्भवः दोषः अपि नास्ति इति कृत्वा लक्षणं समीचीनम् अस्ति इति अस्ति अस्तु अग्रे सरामः तर्हि तत्र धनश्री भगिनी अग्रे पठति वा
आम् आम् महोदय. तच्चेति एकैकस्य आत्मनः एकैकं मनः अपेक्षितम् इति असकृत् आवेदितमेव. अतश्च आत्मनाम् अनन्तत्वात् तावन्ति मनांसि अपेक्षितानि, अतः अनन्तम् इति युक्तम्. अग्रे पठामि.
एतावत् वदतु भगिनि.
एतावत् तच्च इति एकैकस्य आत्मनः एकैकं मनः अपेक्षितम् इति असकृत् आवेदितम् एव.
नाम तत्र तच्छेति इत्युक्ते तत्र मनसः लक्षणवाक्ये किमस्ति तत्र प्रथमतया तत्र सुखादि उपलब्धि साधनं मनः
मनः
मनः तदनन्तरं द्वितीयवाक्यमस्ति तच्छः तच्छ इति.
हा एवम्. अतः सुखादि उपलब्धिकारणस्य विषये कथं तस्य सार्थक्यं भवति इति
एतावत् चर्चितम्. एतावत् चर्चा अभवत्. इदानीम् अग्रे सरामः द्वितीयभागं यत् अस्ति.
द्वितीयभागं यत् इन्द्रियत्वम् इति अस्ति तस्य
तदपि तदपि उक्तवन्तः. इदानीं तत्र एकनिमिषः तत्र चित्रं कुत्र अस्ति इति तत्र एकनिमिषः भगिनि तत्र एतत् सर्वं गतवर्गे वयं कृतवन्तः किन्तु तत् हा एकनिमिषः एतत् यदि स्वीकुर्मः तर्हि तत्र सरलं एकनिमिषः हा यदस्ति तत्र एतदेव तच्च तच्च इत्युक्ते तच्च प्रत्यात्मनियतत्वं नियतत्वात् अनन्तं परमाणुरूपं नित्यं च इति भागः.
अस्तु अस्तु. एकैकस्य आत्मनः एकैकं मनः अपेक्षितम् इति असकृत् आवेदितम् एव. नाम प्रत्येकस्मिन् आत्मनि एकैकं मनः अस्ति, तस्य अपेक्षा अस्ति
इति वयं तत्र बहुवारं पूर्वमपि उक्तवन्तः खलु तत्र असकृत् नाम धनश्री भगिनी
असकृत् आवेदितं नाम
असकृत् अनेकवारं ज्ञातम् अथवा उक्तम् एव. एकैकस्य आत्मनः एकैकं मनः अस्ति इति उक्तं बहुवारम् उक्तम्
अपेक्षितं बहुवारम् उक्तम्. अतश्च आत्मनाम् अनन्तत्वात् तावन्ति मनांसि अपेक्षितानि. आत्मनः अनन्ताः सन्ति अतः तावन्ति मनांसि अपि आवश्यकानि अपेक्षितानि, अतः अनन्तम् इति युक्तम्.
सिद्धमस्ति नाम स्वीकर्तुं अङ्गीकर्तुं शक्नुमः तत्र अनन्तम् अस्ति. एकमेव मनः इति नास्ति, अनेकानि मनांसि अनन्तानि मनांसि सन्ति इति सम्यक् रीत्या घटते इति समीचीनम् इति अङ्गीकर्तुं शक्नुमः. हा अस्तु अग्रे अपि किञ्चित् पठतु तर्हि तत्र
तस्य परिणाम आह परमाणुरूपम् इति. तस्य परिमाणम् आह परमाणुरूपं नाम तस्य परिमाणं किम् अस्ति, तत् परमाणुरूपम् अस्ति इति अपि अस्माभिः पूर्वमेव दृष्टम्.
परिमाणम्
आह नाम उक्तमस्ति
वदामः तत्र परमाणुरूपम् इति वदामः
मध्यमपरिमाणत्वे दर्शितरीत्या अनित्यत्वम् आपद्येत
इत्युक्ते
आपद्येत भवेत् नाम यदि मध्यमपरिमाणत्वम् इति अस्माभिः अङ्गीकृतं तर्हि तत्र अनित्यत्वम् आपद्येत नाम अनित्यत्वमपि तस्य भवेत्
आपतति किन्तु अत्र आपद्येत इति प्रायश तत्र विधिलिङ् खलु
हा विधिलिङ् भवेत् नाम
भवेत् सम्भावनार्थं
सम्भावना भवेत् परन्तु तथा अन्योपि मध्यमपरिमाणवतः विशेषः दृष्टः सः अवयवैः उत्पद्यते नाम यदि मध्यमपरिमाणम् अस्ति इति अस्माभिः चिन्तितव्यं तर्हि तत्र एकं तु अनित्यत्वं भवेत् अनन्तरं सः अवयवात् उत्पन्नः भवेत्
उत्तमं तत्र मध्यमपरिमाणवतः इति अस्ति तत्र विभक्ति का तत्र
षष्ठी अस्ति मध्यमपरिमाणवतः
वचनं
प्रथम एकवचनं
परिमाणवान् तत्र भवतः यथा भवत् इति मध्यमपरिमाणवत् तस्य षष्ठी एकवचनं परिमाणवतः पदार्थः नाम मध्यमपरिमाणवान् पदार्थः अस्ति चेत् तस्य पदार्थस्य विशेषः अन्यः विशेषः अपि अस्माभिः दृष्टः अस्ति खलु कः सः विशेषः इत्युक्ते अवयवैः सः पदार्थः अवयवैः उत्पद्यते इति दृष्टः इति पूर्वम् अस्माभिः दृष्टः अस्ति यथा घटः मध्यमपरिमाणवान् घटः अस्ति
तस्य च प्रागभावः भवति नाम तस्य उत्पन्नात् पूर्वं सः नास्ति नाम तस्य उत्पत्तेः पूर्वम् अभावः अस्ति अतः प्रागभावः मध्यमपरिमाणवत् अस्ति अतः ध्वंसोऽपि भवति नाम तस्य ध्वंसः अपि कदाचित् भवेत् तदनन्तरं पुनः अभावः भवेत् अतः ध्वंसभावः अपि भवेत् मनसो अपि मध्यमपरिमाणत्वे परिमाणवत्वे अनन्तानि मनांसि इति अनेके अवयवाः तस्य तस्य प्राग्भावप्रध्वंसभावः इति इमे स्वीकार्याः भवेयुरिति परमाणुरूपता तस्य स्वीकृता तत्र किं भवेत् मनसः मध्यमपरिमाणत्वस्य स्वीकारत्वे अनन्तानि मनांसि इति अनेके अवयवाः तस्य तस्य प्राग्भावप्रध्वंसभावः इति इमे स्वीकार्याः नाम अनन्ताः अनन्तानि मनांसि तु सन्ति यदि तेषाम् अवयवाः भवेत् तर्हि प्रत्येकस्य मनसः प्राग्भावः भवेत् प्रध्वंसभावः भवेत् इति अपि स्वीकरणीयम्
तस्यापि तत्र नाम तस्य तस्य इत्युक्ते तस्य तस्य अवयवस्य अपि तत्र प्रत्येक मनसः एकं मनः अस्ति तस्य मनसः अवयवाः अपि भवन्ति भवेयुः तर्हि तेषामपि तत्र प्रत्येक अवयवस्य अपि तत्र प्रायशः तत्र प्रागभावः प्रध्वंसाभावः अपि अति भवेयुः इति तदपि प्रायशः वक्तुं शक्नुमः अथवा मनसः एव स्वीकुर्मः अस्तु मनसः प्रागभावः अपि प्रध्वंसाभावः अपि स्वीकार्याः भवेयुः इति कृत्वा
परमाणुरूपता तस्य स्वीकृता तस्य मध्यमपरिमाणत्वं वयं न स्वीकर्तुं शक्नुमः अतः परमाणुरूपता स्वीकृता इति.
हा, यतोहि तत्र परमाणु, तत्र परमाणुरूपता इति इत्यस्मिन् तत्र रूपता अस्यां तत्र लाघवमस्ति. परमाणुरूपा इति रूपता इति स्वीकार्येण लाघवमस्ति. यदि तत्र मध्यमपरिमाणम् इति स्वीकुर्मः तर्हि तत्र गौरवमस्ति. अनेक अन्ये अनेकपदार्थविषयः आगच्छन्ति इति कृत्वा विषयाः आगच्छन्ति, प्रागभावः, प्रध्वंसाभावः, एतत् सर्वं तस्य चर्चा अपि भवति. नाम यदि अनित्यम् अस्ति चेत् कदा तस्य उत्पत्तिः भवति, कदा तस्य नाशः भवति, किमर्थम् उत्पत्तिः भवति, किमर्थं नाशः भवति, एतत् सर्वं वक्तव्यं भवति. अतः गौरवम् अस्ति. अतः नित्यम् इति स्वीकारे लाघवम् अस्ति. अस्तु, तत्र मध्यमपरिमाणत्वे इति नास्ति, किन्तु मध्यमपरिमाणवत्त्वे इति अस्ति. किमर्थं
नाम परिमाणवत् नाम यस्य मध्यमपरिमाण परिमाणमस्ति.
मनसः मध्यमपरिमाणवत्त्वम् अथवा मनः मध्यमपरिमाणवत् अस्ति चेत् तत्र अवयवाः अपि भवन्ति इति. अस्तु, समीचीनं भगिनि. हा, अस्तु, अन्तिममपि पठतु, तदनन्तरं अग्रे सरामः इति.
परमाणुरूपत्वेन एव तस्य नाश असम्भवात् नित्यत्वम् अपि आह नित्यम् इति. परमाणुरूपत्वस्य स्वीकार्येण तस्य नाशस्य असम्भवः असम्भवात् नित्यत्वम् अपि आह नित्यमिति. तस्य नाशस्य नाशस्य कारण नाम नाश एव न भवेत्, ध्वंसाभावः नास्ति तत्र, तेन नित्यत्वमपि सिद्ध्यति. अतः नित्यमिति अपि सिद्ध्यति.
हा, अतः तत्र परमाणुरूपम् इति अपि नित्यं नित्यत्वं तत्र यत्र वयं तत्र अनुमानेन यः कोऽपि पदार्थस्य पदार्थः सिद्धः भवति तदा वयं लाघवमेव स्वीकुर्मः. एकत्वं नित्यत्वम् अपि इति स्वीकुर्मः, तथैव अत्रापि नित्यत्वं स्वीकुर्मः. एकत्वस्य स्वीकारे तत्र युक्तिः अस्ति. तत्र मनः एकं नास्ति इति कृत्वा मनसः अनेकत्वम् इति समीचीनं, किन्तु नित्यत्वे लाघवमस्ति, अतः परमाणुरूपम् अपि नित्यत्वम् इति स्वीकुर्मः. अस्तु, अग्रे भगिनि, तत्र समापयामः तत्र इति.
इति श्रीगोडाकुल अवधिपूर्ण चन्द्र महामहोपाध्याय श्रीसुब्रह्मण्यगुरुचरणान्ते वासिनः देवदत्तस्य कृतौ तर्कसङ्ग्रहव्याख्यायां विद्याधरीसंज्ञकायां द्रव्यनिरूपणम्.
अतः एतावत् तत्र देवदत्तपाटील तस्य तर्कसङ्ग्रहव्याख्या विद्याधरीनामक नामिका व्याख्या तत्र तस्मिन् तत्र द्रव्यनिरूपणम् इति भागः कृतम् अस्ति. नाम तत्र उद्देशः ग्रन्थः आसीत्, उद्देशः भागः, तदनन्तरं लक्षणभागः. लक्षणभागे यया तत्र क्रमः आसीत् तत्र प्रथमतया द्रव्यं, तदनन्तरं गुणम् इति, तादृशं तत्र गुणः इति. इदानीम् एतावत् वयं द्रव्यस्य निरूपणं, द्रव्याणां लक्षणं, लक्षणवाक्यानि परिशीलितवन्तः. तत्र अन्ते वासिनः नाम शिष्यः, चरणान्ते वासिनः शिष्यः, तेन कृतः वासी इति अन्ते वासि तस्य देवदत्तस्य कृतौ इति. अस्तु, समीचीनम्. अस्तु, तर्हि अतः तत्र एतावत् वयं द्रव्यस्य निरूपणं कृतवन्तः. इदानीम् अतः तत्र एकः भागः, तत्र निरूपणभागः तस्य समाप्तिः अभवत्. इदानीम् अग्रे तत्र गुणानां निरूपणं भविष्यति. अतः इदानीं गुणनिरूपणम् अस्तु अत्रापि विशेषः अस्ति अतः पश्यामः तर्हि तत्र अग्रे हा अनीता भगिनी अग्रे पठति वा
आं पठामि गुणनिरूपणम् एतावता ग्रन्थेन नवद्रव्याणि निरूपितानि सम्प्रति क्रमप्राप्ते गुणनिरूपणे आदिमं रूपं लक्षणविभागाभ्याम् आह एतावता वयं नव द्रव्याणि ग्रन्थेन नव द्रव्याणि निरूपितानि सन्ति सम्प्रति क्रमेण गुणनिरूपणे आदिमरूपं लक्षणविभागाभ्याम् आह इत्युक्ते आह इत्युक्ते तस्य उक्त वयं वदामः इति अर्थः
तत्र ग्रन्थेन तत्र प्रथमवाक्ये ग्रन्थेन नवद्रव्याणि निरूपितानि नाम एतावत् ग्रन्थे किं कृतं नवद्रव्याणां निरूपणं कृतम् अथ ग्रन्थेन
निरूपणम् अभवत्
अभवत्
इदानीं क्रमप्राप्ते
क्रमप्राप्ते नाम अस्माकं क्रमः अस्ति तत्र प्रथमतया द्रव्यं तदनन्तरं गुणः इति अतः क्रमप्राप्ते गुणनिरूपणे नाम तत्र द्रव्यनिरूपणं तदनन्तरं क्रमः अस्ति गुणनिरूपणम् अस्मिन् गुणनिरूपणे तत्र गुणनिरूपणे तत्र गुणानां तत्र सप्तमे पुटे गुणाः सन्ति एकवारं पठतु तत्र
गुणनिरूपणे
तत्र गुणान् विभजते इति अस्ति सप्तमे पुटे
हा रूपरस गन्धस्पर्श संख्यापरिमाण पृथक्त्वं संयोग विभाग परत्व गुरुत्व द्रव्यत्व
परत्व
अपरत्व गुरुत्व द्रवत्व स्नेह शब्द बुद्धि सुख दुःख इच्छा द्वेष प्रयत्न धर्म अधर्म संस्काराः चतुर्विंशति गुणाः सन्ति
इति वयं पूर्वं पठितवन्तः अतः तत्र लक्षणविभागाभ्याम् इति तत्र विभागाभ्याम् इति तत्र इति अस्ति खलु रूपं
लक्षणविभागाभ्याम्
इति अस्ति चेत् तत्र वचनम् अस्ति
बहुवचनं
विभागाभ्यां
लक्षणविभागाभ्यां
न विभागाभ्यां बहुवचनं नास्ति खलु तत्र
इति द्वितीया
द्विवचनं
द्वितीया द्विवचनं हा
तृतीया
चतुर्थी वा पञ्चमी
द्विवचनं तत् अत्र द्वितीय तत्र तृतीया अस्ति नाम लक्षणविभागस्य आधारेण तत्र आदिमं रूपं वदामः नाम तत्र गुणस्य निरूपणे वयं तत्र विभागं कृतवन्तः गुणानां विभागः गुणान् विभजते रूपरसगन्धस्पर्श इति विभागं कृतवन्तः अतः विभागस्य आधारेण तत्र लक्षण अपि तत्र उद्देश तत्र उद्देशभागः लक्षणभागः आसीत् अतः तत्र भागः कृतः अतः तत्र भागाभ्याम् इदानीं तस्य आधारेण रूपं किम् इति तस्य लक्षणं वदामः रूपमिति आदिमगुणः अस्ति अतः तत्र रूपस्य लक्षणं वदामः इति अग्रे
चक्षुः मात्रग्राह्यः गुणः रूपं तच्च शुक्ल नील पित रक्त हरित कपिश चित्रभेदात् सप्तविधम्। पृथ्वी जलतेजो वृत्ति तत्र पृथिव्यां सप्तविधम्। अभास्वरशुक्लं जले, भास्वरशुक्लं तेजसी। अत्र चक्षुः मात्रग्राह्यः गुणः रूपम्। रूपम् इति गुणः अस्ति, तस्य ग्राहकत्वं चक्षुषा भवति।
तस्य ग्रहणं, तस्य ग्रहणं, तस्य ग्रहणं चक्षुषा
चक्षुषा भवति। रूपम् इति गुणः अस्ति, तस्य ग्रहणं चक्षुषा भवति। अतः चक्षुः मात्रग्राह्यः गुणः रूपम् इति दत्तम्।
तत्र इदानीं केवलं वदामः मात्र नाम एव, केवलं चक्षुषा एव भवति, एव भवति। अग्रे
इत्युक्ते रूपम् इति गुणस्य ग्रहणं चक्षुषा एव भवति इति।
अग्रे
तत् च शुक्ल नील पित रक्त हरित कपिश चित्रभेदात् सप्तविधम्। तत्र सप्ताः रङ्ग वर्णाः सन्ति।
रूपम् इत्युक्ते वर्णः इति समीचीनं। तत्र केवलं सप्त इति न, तत्र यथा तत्र कर्मणि तत्र पञ्च एव कर्माणि दत्तानि खलु, तत्र उत्क्षेपणम् अपक्षेपणम् आकुञ्चनं प्रसारणं गमनम् इति केवलं तत्र तेषु एतेषु तत्र रूपेषु सर्वे अन्तर्भूताः इति चिन्तनीयं तावदेव। नाम केवलं एतदेव तत्र एते वर्णाः एव सन्ति इति न, तत्र अन्यवर्णाः अस्मिन् अन्तर्भूताः इति चिन्तयितुं शक्नुमः। अग्रे तत्र पृथ्वी जल तेजसि,
पृथ्वी जल तेजः वृत्ति,
हा नाम रूपं कुत्र कुत्र केषु द्रव्येषु वर्तते,
पृथिव्यां जले अपि तेजसि अपि वर्तते,
तेजसि अपि, किन्तु वायु नास्ति, आत्मनि
नास्ति,
हा मनसि नास्ति, काले नास्ति इति। अग्रे
तत्र पृथिव्यां सप्तविधम्, पृथिव्यां सप्तविधम् इति दत्तमस्ति,
नाम सर्वविधरूपं तत्र रूपाणि पृथिव्यां भवितुम् अर्हन्ति। तत्र नाम पृथिव्याः अनेक सर्ववर्णाः अपि तत्र पृथिव्यां भवन्ति।
अत्र पृथिवी इति अधिकरणरूपेण आगच्छति, तत्र सप्तविधा विधम्,
नाम यत् पूर्वम् उक्तं सप्तविधं तत्सर्वं पृथिव्यां भवितुम् अर्हति। शुक्ल शुक्लवर्णः पृथिव्यां भवति, नीलवर्णः पृथिव्यां भवति, पीतवर्णः पृथिव्यां भवति।
अभास्वरशुक्लं जले, तत् वयं पठितवन्तः, जल इति अभास्वरशुक्लम्
इति एव अस्ति। तत्र नाम जले नीलरूपं जले नास्ति, पीतरूपं जले नास्ति, केवलम् अभास्वरशुक्लरूपमेव जले अस्ति
वर्तते।
तेजसि,
तेजसि भास्वरशुक्लम् इति अस्ति
इति एव,
भास्वरशुक्लम् इति
शुक्लमेव वर्तते, अन्यत् अन्यत् रूपं तत्र तेजसि नास्ति। पृथिव्यां तु सर्वविधरूपा तत्र सर्वविधम् अस्ति, नाम शुक्लरूपं इति सन्ति। अस्तु समीचीनं, धन्यवादः भगिनि, धन्यवादः। अस्तु अग्रे सरामः तर्हि, तत्र तर्हि अग्रे राजीव भगिनी अग्रे पठति वा?
क्षम्यता महोदय, अद्य अहं केवलं
अस्तु अस्तु चिन्ता मास्तु तर्हि, चिन्ता मास्तु भगिनि। अस्तु अग्रे नरसिंह महोदय।
आं महोदय, इह मातृपद इह सम्प्रदाये मातृपदस्य इतरयोगः व्यवच्छेदश्चार्थ तस्मिन् च
तत्तत्पदार्थान्वयः
इत्यादि शाब्दबोध रीति अनुसृत्य अर्थवर्णनं कुर्वन्ति, परन्तु ग्रहणक्लेश परिजिहीर्षुणा मया नैतदुच्यते इति अन्ते अन्येभ्यः तत्परग्रन्थेभ्यः अवगन्तव्यम्। एतल्लक्षणनिरूपणप्रकारश्च आत्मा अस्मत्
अस्मत् अस्मत्
सम्मतः इत्थम्
इति
अत्र चक्षुर्मात्रगाह्योगुणरूपम् इति अस्ति। अत्र मातृपदस्य इतरयोगः व्यवच्छेदश्चार्थ इति अस्ति। इत्युक्ते तत्र मातृपद यदि वयं स्वीकुर्मः चेत् तत्र चक्षुर्भिन्न इन्द्रियेण न तत् न ग्राह्यते इति अर्थः भवति वा महोदय?
सत्यं सत्यं भगिनि। हा नाम तत्र इतरयोगः, तत्र चक्षुः अपि तत्र पदार्थस्य तयोः संयोगः भवति खलु। तत्र तर्हि इन्द्रियसंयोगः यद्भवति इतर इन्द्रियसंयोगः तेन तत्र नाम इतर इन्द्रिय योगः नास्ति, व्यवच्छेदः नाम तत्र तद् नास्ति इति व्यावर्तयति। तत्र इतरयोगः नास्ति इति मातृशब्दस्य अर्थः भवति। अतः तत्र केवलं तत्र एव केवलम् इति अर्थे भवति। तत्र चक्षुर्मात्रग्राह्यं नाम केवलं चक्षुषा एव ग्राह्यः इति भवति।
तस्मिन् च तत्तत् पदार्थान्वयः इत्यादि शाब्दबोधरीतिम् अनुसृत्य अर्थवर्णनं कुर्वन्ति।
नाम यदि वयं तत्र एतद् वाक्यं पठामः तत्र न्यायशास्त्रे प्रत्येकस्य वाक्यस्य अवगमनशैली भिन्ना अस्ति। नाम तत्र यदि वयं वदामः तत्र रामः ग्रामं गच्छति इति वदामश्चेत् तत्र किं भवति, तत्र न्यायशैली तत्र न्यायशैल्या तत्र वाक्यस्य अवगमनम् अथवा वर्णनं तत्र किं भवति, तत्र कर्मत्वं तत्र ग्रामे अस्ति, तत्र ग्रामनिष्ठकर्मत्व अनुकूलक्रियावान् रामः गमनक्रियावान् रामः इति तादृशशाब्दप्रयोगः शाब्दबोधः भवति। अतः तत्र अत्रापि तत्र चक्षुर्मात्रग्राह्यगुणोरूपम् इति यथा तत्र रामः रामं गच्छति इति वदामः तथापि एतस्य वाक्यस्य यत् लक्षणवाक्यमस्ति तस्यापि वर्णनं कर्तुं शक्नुमः, किन्तु अपि जनाः कुर्वन्ति अर्थवर्णनं कुर्वन्ति, परन्तु वयं किं कुर्मः,
परन्तु ग्रहणक्लेश परिजिहीर्षुणा मया नैतदुच्यते तत्र न उक्तं।
तादृश नाम यत्र रामः ग्रामं गच्छति इति वाक्यस्य अर्थः कः इत्युक्ते नैयायिकः किं वदन्ति, अस्तु रामः ग्रामं गच्छति, ग्रामनिष्ठ कर्मत्व गमन अनुकूल गमनक्रिया रामे अस्ति, अतः रामः तादृश अनुकूलक्रियावान् रामः इति यदि ते वदन्ति किं भवति, तेन अस्माकं मनसि किमपि बोधः न जायते खलु। अतः तद् त्यजामः, ग्रहणक्लेशः भवति। अतः ग्रहणक्लेश परिजिहीर्षुणा परिजिहीर्षु तत्र जिहीर्षु जिहीर्षुः इति इत्युक्ते तत्र परि तत्र जिहीर्षु इति सनन्तपदं नाम परिहारं कर्तुम् इच्छा परिजिहीर्षु तत्र हरणं तत्र परिहारम् इति तत्र परिजिहीर्षुणा इति तत्र जिहीर्षुः इति उकारान्तपदम् अहं परिजिहीर्षु मुमुक्षु इव तत्र मुमुक्षु तृतीयास्ति मुमुक्षुणा तथैव परिजिहीर्षुणा तत्र ग्रहणक्लेश परिजिहीर्षुणा तत्र ग्रहणक्लेशस्य परिहारं समाधानं वक्तुम् इच्छा अस्ति तादृशम् अहमस्मि अतः मया तादृशं न उच्यते इति कृत्वा किं करणीयं यदि तादृशवर्णनं अपेक्षन्ति ये पठितुम् इच्छन्ति ते कुत्र एतत् प्राप्नुवन्ति
अन्येभ्यः
ग्रन्थेभ्यः तत्र एतत् सर्वं प्राप्तुं शक्नुवन्ति अतः किन्तु तादृशी शैली अस्माभिः न तादृशीं शैलीं वयं न अनुसरामः एतल्लक्षणं
निरूपणप्रकारश्च अस्मत्सम्मतः इत्थम् एतद् उपरि यद्दत्तं तदेव अस्मत्सम्मतः इति अस्माकं कृते
यद् 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 अग्रे वयं वदामः एतद् निरूपणं यद् अग्रे भविष्यति तद् अस्माकं सम्मतमस्ति अतः तदेव दास्यामः किन्तु शास्त्ररीत्या यद् यद् शाब्दबोध तादृश अर्थवर्णनं भवति तद् न दास्यामः अस्माकं सम्मतं तत्र चारल्यरीत्या यत् वक्तुं शक्नुमः केवलं तदेव अस्मिन् पुस्तके वदामः अतः तत्र मातृपदस्य एतद् वाक्यं सर्वं स्वीकृत्य अन्यरीत्या वक्तुं शक्नुमः नैयायिकरीत्या किन्तु तेन ग्रहणक्लेशः भवति इति कृत्वा सरलरीत्या अग्रे वदामः अस्तु समीचीनं महोदय धन्यवादः अग्रे तत्र जयलक्ष्मी भगिनी अग्रे पठति वा
महोदय क्षम्यता चक्षुरेव चक्षुमात्रम् इति भवेत् विग्रहः ग्राह्यम् इति पदे च ग्रहधातुः वर्तते ण्यत् प्रत्ययश्च धातोः प्रत्यक्षमर्थः ण्यत् प्रत्ययस्य कर्मत्वमर्थः प्रत्यक्षकर्मत्वं च विषयत्वरूपम् इति वक्ष्यमाणत्वात् ग्राह्यपदेन प्रत्यक्षविषयत्वं लब्धम् तच्च रूपनिष्ठं चक्षुषा एव ग्राह्यम् इति वर्णने तृतीया वर्तते तया तृतीयया करणत्वं साधनत्वम् अवगम्यते तच्च चक्षुनिष्ठं प्रत्यक्षनिरूपितं तथा च एवं भवेत् स्थितिः
अस्तु वदतु भगिनि तर्हि
अत्र अस्माकं लक्षणवाक्ये चक्षुरेव इत्यस्य चक्षुमात्रम् इति इदानीम् विग्रहवाक्यस्य अर्थः भवेत् ग्राह्यम् इति पदे ततः परं
चक्षुरेव
इति अर्थः भवति ततः परं ग्राह्यम् इति पदमस्ति ग्राह्यं पदे ग्रहधातुः अस्ति ततः परं ण्यत् इति कश्चन प्रत्ययः अपि अस्ति धातुः प्रत्यक्षमर्थः अस्ति
अत्र गृह्णाति नाम तत्र रूपं गृह्णाति इत्युक्ते कः अर्थः रूपस्य
प्रत्यक्षं
न रूपस्य तत्र धातुः अत्र अस्ति ग्रहधातुः
खलु
अत्र ग्रहधातोः अर्थः कः अस्मिन् सन्दर्भे नाम तत्र चक्षुः रूपं गृह्णाति इत्युक्ते कः अर्थः चक्षुः रूपं गृह्णाति
तदेव गृह्णाति इति वदामः चेत् तत्र
नाम तत्र हस्तेन गृह्णाति इति भिन्नमस्ति खलु हस्तेन पुस्तकं
कर्ता भवति इति वक्तुमिच्छति वा
अत्र प्रत्यक्षं ज्ञानं भवति प्रत्यक्षं भवति नाम चक्षुषा पुस्तकं पश्यामः चक्षुषा पश्यामः तर्हि किं पुस्तकं पुस्तके रूपम् अस्ति अथवा पुस्तकम् अस्ति इति तत्र वयं चक्षुः किं करोति पुस्तकं गृह्णाति नाम पुस्तकस्य ज्ञानं जनयति खलु नाम तत्र अतः प्रत्यक्षम् इति अर्थः नाम ग्रह इति धातोः अर्थः अत्र प्रत्यक्षम् इति न चक्षुः रूपं गृह्णाति इत्युक्ते चक्षु गृह्णाति इत्युक्ते प्रत्यक्षं जनयति ज्ञानं जनयति प्रत्यक्षज्ञानं भवति चक्षुः अथ धातोः अर्थः प्रत्यक्षम् इति अर्थः ग्र इति धातोः अत्र अर्थः अस्ति प्रत्यक्षम् इति
अस्तु ततः परं ण्यत् प्रत्ययस्य कर्मत्वम् अर्थः ण्यत् इति साधारणतया ग्रहीतुं योग्यम् इति वदामः चेत् तत्र ण्यत् प्रत्ययस्य प्रयोगः स्यात्
अत्र कर्मपदमेव भवति खलु तत्र
कर्मत्वम् अर्थः भवति
नाम कार्यं तत्रापि ण्यत्
कार्यम्
अपि वाक्यं यत् वक्तव्यं तद् वाक्यं तदपि कर्मपदमेव खलु
कार्यं
कार्यं वाक्यं हा अतः तत्र कर्मत्वमेव आगच्छति ण्यत् प्रत्ययेन अतः तत्र कर्मत्वम् इति अत्र कर्मत्वं प्रत्यक्षकर्मत्वम् इत्युक्ते अत्र किमस्ति विषयत्वं
हा विषयत्वमपि भवति कार्यत्वमपि भवति
किन्तु कार्यत्वं कर्मत्वं नाम कार्यत्वम् अत्र विषयत्वम् इति भवति अतः तत्र किं विषयत्वरूपम् इति वक्ष्यमाणत्वात् अग्रे वक्ष्यमाणः अतः तत्र ग्राह्यपदेन प्रत्यक्षविषयत्वम् इति लब्धं नाम प्रत्यक्षज्ञानं कारणम् इत्युक्ते तत्र कार्यम् अस्ति तत्र तत्र विषयम् अस्ति तत्र रूपम् अतः प्रत्यक्षविषयत्वं रूपे भवति प्रत्यक्ष इति ज्ञानस्य विषयः रूपं खलु नाम
प्रत्यक्षमे विषयस्य विषयः अस्ति अतः विषयत्वम् अस्ति अतः ग्राह्यम् इति वदामः चेत् प्रत्यक्षविषयत्वम् इति अर्थः
रूपे अस्ति प्रत्यक्षम् इति ग्रहधातोः अर्थः तस्य ग्राह्यः अथवा ग्राह्यम् इत्युक्ते कर्मपदं कर्मपदं किमस्ति रूप अत्र रूपमेव तत्र ग्राह्यमस्ति खलु गुणः तत्र मात्रग्राह्यः गुणः रूपं तर्हि रूपमेव ग्राह्यमस्ति अत्र चक्षुग्राह्यं ग्राह्यमस्ति नाम ग्राह्यं रूपमस्ति ग्राह्यं नाम प्रत्यक्षविषयत्वं तर्हि यतोहि रूपमेव विषयः अस्ति प्रत्यक्षज्ञानस्य विषयः रूपमस्ति यत् ज्ञानं चक्षुषा प्राप्तम् अस्ति तदस्ति प्रत्यक्षज्ञानं प्रत्यक्षज्ञानं तस्य विषयः भवति अत्र वयं किम् उक्तवन्तः चक्षुः रूपं गृह्णाति तर्हि रूपस्य प्रत्यक्षज्ञानम् अभवत् तर्हि रूपम् इति विषयः अस्ति प्रत्यक्षज्ञानस्य तर्हि प्रत्यक्षविषयत्वम् अथवा विषयता रूपे अस्ति अतः तत्र प्रत्यक्षविषयत्वं प्राप्तं तच्च तच्च विषयत्वं कुत्र अस्ति रूपे अस्ति नाम रूपनिष्ठम् अस्ति विषयत्वम्
उपनिष्टं विषयत्वम् अस्तु प्रत्यक्षकर्मकत्वं च विषयत्वरूपत्वं वक्ष्यमाणत्वात् ग्राह्यपदेन प्रत्यक्षविषयत्वं लब्धं तच्च रूपनिष्ठम्
एतावत् वयं प्रत्यक्षकर्मत्वम् इत्युक्ते विषयरूपत्वम् इति एतावत् तस्य विवरणं न कृतवन्तः किन्तु अग्रे वक्ष्यमाणम् अस्ति एतत् अस्मिन् पुटे अतः इदानीं केवलं तत्र प्रत्यक्षकर्मत्वं नाम विषयत्वम् इति एव स्वीकार्यम् अस्ति अतः ग्राह्यपदेन प्रत्यक्षविषयत्वम् इति प्राप्तम्
अस्तु प्रत्यक्षविषयत्वम् इति अर्थः ग्राह्यम् इति पदेन तच्च रूपनिष्ठमस्ति रूपे एव एतादृशप्रत्यक्षविषयत्वं तिष्ठति
अस्मिन् प्रसङ्गे नाम यदा वयं वदामः चक्षुग्राह्यगुणः रूपम् इति यदि वदामः चक्षुग्राह्यः गुणः रूपम् इति यदि वदामः तर्हि रूपं चक्षुषा गृह्यते नाम चक्षुग्राह्यं रूपम् ईदृशमस्ति चक्षुग्राह्यम् अस्ति ग्राह्यं नाम प्रत्यक्षविषयत्वं रूपं विषयः रूपम् अस्ति अतः तत्र विषयत्वं प्रत्यक्षविषयत्वं रूपे अस्ति
चक्षुषा एव ग्राह्यम् इति वर्णने क्षम्यतां तृतीया वर्तते चक्षुषा एव ग्राह्यम् इति वर्णने तृतीया वर्तते चक्षुषा इति पदं तु तृतीया विभक्ति अस्ति तया तृतीयया करणत्वं साधनत्वम् अवगम्यते सत्यं चक्षुषा इति वदनेन चक्षु इति इन्द्रियेण इति अर्थः तेन तृतीयत्वेन करणत्वमपि तत्र साधनत्वं दृश्यते करणत्वम् अस्ति चक्षुः इति इन्द्रियमस्ति इन्द्रियमिति पदेन करणमस्ति करणमिति पदेन साधनमस्ति तेन साधनत्वं करणत्वं सर्वं चक्षुषि वर्तते इति
समीचीनं
तच्च चक्षुर्निष्ठं प्रत्यक्षनिरूपितम् तेन अवगम्यते यत्
साधनत्वं नाम कारणत्वं खलु
कारणत्वं
कारणत्वम् अथवा जनकता कारणत्वं नाम जनकः इति चिन्तयामः जन्यं तत्र कार्यम् इति चिन्तयामश्चेत् तत्र कारणत्वं तस्य अन्यनाम नामान्तरं जनकता
जनकता
कीदृशी अस्ति एषा जनकता जन्यतया निरूपिता अस्ति खलु अथवा एषा जनकता जन्यतां निरूपयति प्रत्यक्षनिष्ठजन्यतां निरूपयति अतः चक्षुर्निष्ठप्रत्यक्षनिरूपितम्
चक्षुर्निष्ठ जनकता निरूपितं जन्यता अस्ति प्रत्यक्षनिष्ठजन्यता
हा नाम कारणत्वं यदस्ति तत् चक्षुर्निष्ठा अस्ति अपि प्रत्यक्षनिरूपितमस्ति नाम प्रत्यक्षनिष्ठजन्यतया निरूपितम् अस्ति कारणत्वं साधनत्वम् अतः चित्रम् एतादृशी भवति नाम चक्षुः यः यदस्ति तस्मिन् जनकता अस्ति तया जनकतया तत्र जनकता निरूपितजन्यता अस्ति जन्यता प्रत्यक्षे अस्ति जन्यता प्रत्यक्षे अस्ति तस्मिन् प्रत्यक्षे विषयिता
अस्ति
तर्हि
विषयज्ञानस्य
विषयः अस्ति रूपम् अतः एतेन चित्रेण किं भवति चक्षुः रूपस्य प्रत्यक्षज्ञानं जनयति खलु
चक्षुः रूपस्य प्रत्यक्षज्ञानं जनयति आम्
रूपं प्रत्यक्षज्ञानम् अस्ति प्रत्यक्षज्ञानम् इति तस्य विषयः कः रूपं
प्रत्यक्षज्ञानविषयः रूपं
अतः रूपविषयक एतत् प्रत्यक्षज्ञानं कीदृशमस्ति रूपविषयकं ज्ञानमस्ति नाम अस्य ज्ञानस्य विषयः रूपविषयकं ज्ञानं नाम तस्य ज्ञानस्य विषयः रूपमस्ति
रूपमस्ति
अतः रूपविषयकज्ञानं प्रत्यक्षज्ञानं जनयति चक्षुः अतः चक्षुः रूपं गृह्णाति अथवा चक्षुषा तत्र चक्षुः चक्षुग्राह्यं रूपम् इत्युक्ते चक्षुः रूपविषयकं ज्ञानं जनयति.
विषयकं ज्ञानम्
इति. अस्तु, समीचीनं. तत्र अन्य कोऽपि वदेत् तत्र एतावत् अवगतं तर्हि तत्र विमला भगिनी तत्र प्रयत्नं करोति वा तत्र अस्मिन् परिच्छेदे किम् अस्ति इति एकवारं भवती स्वशब्दैः वदति वा?
चित्रे महोदय
न न नाम तत्र
परिच्छेदे
हा परिच्छेदे नाम तत्र ग्राह्यपदेन किम् इति अपि तत्
चक्षुरेव चक्षुर्मात्रमिति भवेत् विग्रह विग्रहवाक्ये चक्षुरेव इत्युक्ते केवलचक्षुषा इति ग्राह्यम् इत्युक्ते यत् प्रत्यक्षं भवति चक्षुषा किं ग्रह्यते इत्युक्ते चित्रं रूपं ग्रह्यते इत्युक्ते चक्षुषा यत् प्रत्यक्षं भवति तदेव ग्राह्यम् इति अत्र दत्तमस्ति. धातुः प्रत्यक्षम् अपि च अन्यत् प्रत्ययः
तत्र ग्राह्यम् इति तत्र किं भवति हा नाम ग्राह्यम् इत्युक्ते तत्र प्रत्यक्षम् इति अर्थः इति अर्थः तत्र नाम चक्षुः रूपं गृह्णाति इत्युक्ते तत्र यथा वयं हस्तेन पुस्तकं गृह्णीमः तथा नास्ति खलु अत्र चक्षुषा तत्र हा रूपं गृह्णाति इत्युक्ते नाम रूपस्य ज्ञानं भवति खलु
उपलब्धिः
हा अतः प्रत्यक्षम् इति नाम ग्रहधातोः अत्र अर्थः अस्ति प्रत्यक्षं ज्ञानम् इति अर्थः ण्यत्प्रत्ययेन यतोहि ग्राह्यः इति अस्ति तत्र ण्यत्प्रत्ययः अपि अस्ति. कर्मत्वं कर्मत्वं नाम ग्रहणयोग्यः अतः प्रत्यक्षयोग्यः इत्युक्ते तत्र प्रत्यक्षकर्मत्वं नाम तत्र प्रत्यक्ष इति ग्रहणयोग्यवस्तु कर्मपदं किमपि तत्र गृह्णाति इति क्रियापदस्य कर्मपदं किमपि भवेत् अत्र
गृह्णाति इति
हा अतः तत्र रूपं गृह्णाति अतः रूपस्य प्रत्यक्षज्ञानं जनयति. तत्र प्रत्यक्षकर्मत्वं नाम कर्म इत्युक्ते अत्र विषयः नाम प्रत्यक्षमिति ज्ञानमस्ति तस्य विषयः अस्ति रूपं नाम चक्षुग्राह्यः गुणः इत्युक्ते यः गुणः चक्षुषा गृह्यते गृह्यते नाम प्रत्यक्षज्ञानं तस्य भवति प्रत्यक्षज्ञाने एषः गुणः विषयः भवति अतः तत्र किं भवति तत्र चक्षुः रूपं गृह्णाति अथवा रूपं चक्षुग्राह्यम् इति पदस्य इति वाक्यस्य अर्थः किम् अस्ति इत्युक्ते तत्र रूपम् इति विषयः अस्ति तत्र प्रत्यक्षज्ञानं रूपस्य प्रत्यक्षज्ञानं चक्षुषा भवति अत्र प्रत्यक्षज्ञानम् इत्युक्ते इन्द्रियं किमपि भवेत् खलु तर्हि तत्र अत्र चक्षुः एव इन्द्रियम्
चक्षुजनकः
चक्षुः एव जनकः अस्ति
प्रत्यक्षं कार्यमस्ति जन्यता अस्ति
हा जन्यता अस्ति अपि प्रत्यक्षमिति ज्ञानस्य कोऽपि विषयः भवेत् खलु
विषयिता अस्ति तेन कारणात् तस्य विषयः रूपमस्ति
रूपमस्ति हा अतः चक्षुः प्रत्यक्षज्ञानं जनयति कीदृशप्रत्यक्षज्ञानं जनयति रूपविषयकं प्रत्यक्षज्ञानं जनयति अतः एव तत्र प्रत्यक्षविषयत्वम् इति तत्र ग्राह्यपदेन प्रत्यक्षविषयत्वं नाम प्रत्यक्षज्ञानस्य विषयः रूपं भवति ग्राह्यम् इत्युक्ते रूपं चक्षुग्राह्यम् इत्युक्ते चक्षुप्रत्यक्षज्ञानस्य विषयः रूपम् अस्ति इति. अस्तु, समीचीनम्. अस्तु, अग्रे सरामः. कोऽपि प्रश्नः अत्र चक्षुर्ग्राह्यः गुणः इत्युक्ते चक्षुषा प्रत्यक्षज्ञानं भवति तस्मिन् ज्ञाने विषयः अस्ति गुणः अत्र गुणः अस्ति रूपम् इति अस्ति एतावत् अपि मात्र इति पदेन तत्र एव इति अर्थः अस्तु अग्रेसरामः कोऽपि प्रश्नः अस्तु अग्रे तर्हि तत्र मृणालिनी भगिनी अग्रे पठति वा
एवकारार्थ एवकारार्थकमात्र पदश्रवणम् श्रवणमिति प्रकृते वर्तते
तत्र पदश्रवणमपि प्रकृते वर्तते
पदश्रवणमपि प्रकृते वर्तते तत्र लोके चैत्रः एव आयाति इत्युक्तौ यथा चैत्रागमनं प्रतीयते तथैव चत्र भिन्नः यः तस्य अनागमनमिति
अनागमनमपि
तथैव प्रकृते अपि चक्षुषा एव ग्राह्यमित्युक्तौ यथा चक्षुषा ग्राह्यत्वं बोध्यते तथैव तदितर ग्राह्यत्वमपि तथा च चक्षुरितराणि यानि घ्राणादीन्द्रियाणि तैः रूपस्य प्रत्यक्षं न भवति अथवा तैः जायमानं यत् प्रत्यक्षं तस्य विषयः रूपं न भवतीति अर्थः फलति
इति तावत्पर्यन्तम् अस्तु वदतु भगिनि तर्हि
एवकारार्थकमात्रपद श्रवणम् अपि प्रकृते वर्तते तर्हि एव इति अर्थं बोधयितुं मात्र वयं प्रयोगं कुर्मः मात्र इति पदस्य
समीचीनं मातृपदस्य अर्थः कः एव इति एव कार अर्थक मातृपदं यदस्ति तस्य श्रवणमपि अत्र वर्तते नाम मातृपदस्य मातृपदमिति आगतमस्ति लक्षणवाक्ये हा तर्हि मातृपदस्य अर्थः अस्ति एव इति इति अर्थः एव इति लोके तस्य प्रयोगः कथं भवति लोके
तत्र लोके चैत्रः एव आयाति इत्युक्तौ यथा
चैत्रागमनं यदि शृण्मः तत्र किं भवति चैत्र एव आयाति
हा तर्हि अन्य कोऽपि नास्ति तत्र केवलं चैत्रः एव आयाति
आयाति इत्युक्ते
आगच्छति
चैत्रः एव आगच्छति इत्युक्ते चैत्रः आगच्छति अपि चैत्र एव आगच्छति इत्युक्ते
चैत्रभिन्नः यः चैत्रभिन्नः कोऽपि न आगच्छति इति
हा इति अस्ति खलु तर्हि चैत्रः एव आयाति इत्युक्तौ यथा चैत्रागमनं प्रतीयते चैत्रागमनं प्रतीयते नाम चैत्रस्य आगमनं प्रतीयते नाम दृश्यते खलु चैत्रस्य आगमनं दृश्यते अवगम्यते अपि तथैव तथैव अवगम्यते चैत्रभिन्नः यः अस्ति
अनागमनमपि
प्रतीयते खलु अनागमनमपि प्रतीयते नाम अवगम्यते अस्माभिः अवगम्यते यदि वयं चैत्रः एव आयाति इति शृण्मः अस्तु चैत्रः आगच्छति अन्य कोऽपि न आगच्छति इति अवगच्छामः चैत्रभिन्नः तस्य अनागमनमपि अवगच्छामः तथैव अत्र किमस्ति एव इति अत्र चक्षुषा प्रकृते नाम अस्मिन् मूलविषये अपि चक्षुषा एव ग्राह्यम् इति इत्युक्तौ किम् अवगच्छामः
चक्षुषा ग्राह्यत्वं बोध्यते अर्थात् इतरतर ग्राह्यत्वं नास्ति इति
प्रथमतया चक्षुषा ग्राह्यत्वं बोध्यते नाम चक्षुषा गृह्यते एतद् रूपं रूपं नाम चक्षुः रूपं गृह्णाति इति अवगच्छामः अपि तथैव
अग्राह्यत्वमपि
तदपि बोध्यते अग्राह्यत्वं ग्राह्यत्वमपि बोध्यते इतर अग्राह्यत्वमपि बोध्यते इतर अग्राह्यत्वं नाम
अन्य
इन्द्रिय ग्राह्यम् अन्य इन्द्रिय अग्राह्यं चक्षुग्राह्यं बोध्यते यथा चैत्रस्य आगमनम् अपि अन्य चैत्रभिन्न अनागमनं तथैव चक्षुषा ग्राह्यत्वम् अपि इतर चक्षुभिन्न अग्राह्यत्वमपि बोध्यते तथा च
चक्षुरितराणि यानि घ्राणादीन्द्रियाणि तैः रूपस्य प्रत्यक्षं न भवति
खलु अतः एतावत् नाम तत्र तैः नाम घ्राणेन्द्रियेण रूपस्य प्रत्यक्षज्ञानं न भवति खलु इति अवगच्छामः खलु चक्षुषा एव ग्राह्यम् इति रूपं चक्षुषा एव ग्राह्यम् इति यदि वाक्यमस्ति चेत् तेन वयम् अवगच्छामः अस्तु चक्षुषा ग्राह्यम् अपि भिन्नेन्द्रियेण न ग्राह्यं नाम घ्राणादि इन्द्रियाणि यानि सन्ति तैः रूपस्य प्रत्यक्षज्ञानं न भवति इति अवगच्छामः अपि अन्या रीत्या वदामश्चेत् तत्र किमस्ति अथवा
तैः जायमानं यत् प्रत्यक्षं तस्य विषयः रूपं न भवति इति अर्थः
खलु
अर्थात् अन्य इन्द्रियैः यत् प्रत्यक्षं भवति तत् विषयकं नास्ति इति
हा इति अस्ति समीचीनं भगिनि नाम एकविधप्रथमविधवदने किमस्ति रूपस्य प्रत्यक्षज्ञानं न भवति अथवा यत्किमपि प्रत्यक्षं ज्ञानं भवेत् तत्र घ्राणेन्द्रियेण अथवा श्रवणेन्द्रियेण वा किन्तु तत्र प्रत्यक्षज्ञानं भवेत् किन्तु तस्मिन् प्रत्यक्षज्ञाने रूपं विषयः न भवति अन्यविषयः भवेत् किन्तु रूपं तत्र तस्मिन् ज्ञाने विषयः कदापि न भवति इति खलु समानार्थकः अतः तत्र चक्षुरितराणि यानि घ्राणादि इन्द्रियाणि तैः रूपस्य प्रत्यक्षं न भवति अथवा तैः इन्द्रियैः जायमानं यद्यपि यत्किमपि प्रत्यक्षज्ञानं भवेत् तस्य प्रत्यक्षज्ञानस्य विषयः रूपं कदापि न भवति इति अर्थः फलति अतः हा इदानीं चित्रस्य वर्णनं किञ्चित् करोतु
आरम्भः कुत्र करणीयः
अत्र एव खलु यथा तत्र वयम् अत्र कृतवन्तः चक्षुः
ज्ञानादि
चक्षुः रूपस्य प्रत्यक्षज्ञानं जनयति तर्हि चक्षुनिष्ठ अतः एतत् प्रथमतया करोतु तत्र रूपं कीदृशं
चक्षुनिष्ठजनकता निरूपिता जन्यताश्रय प्रत्यक्षज्ञानं विषयिता
प्रत्यक्षज्ञाननिष्ठ
विषयिता निरूपित विषयिताश्रयः रूपं
नाम प्रत्यक्षज्ञानस्य विषयः यत् प्रत्यक्षज्ञानं चक्षुषा भवति तस्य उत्पत्तिः भवति चक्षुषा तस्य ज्ञानस्य विषयः रूपं भवितुम् अर्हति रूपं तादृशं विषयः तादृशः विषयः तत्र विषयः भवति इदानीं किमस्ति अस्मिन् चित्रे घ्राणादि इन्द्रियं घ्राणेन्द्रियम् इति चिन्तयतु घ्राणेन्द्रियेण इदानीम् एतद् भागं किमस्ति प्रत्यक्षज्ञानं घ्राणेन्द्रियेण लभ्यते तर्हि तत्र घ्राणेन्द्रिये किमस्ति
घ्राणादि निष्ठजनकता
प्रत्यक्षज्ञानं भवति इति चिन्तयतु गन्धस्य ज्ञानं भवति गन्धस्य ज्ञानं केन इन्द्रियेण भवति
घ्राणेन्द्रियेण
घ्राणेन्द्रियेण. तर्हि घ्राणेन्द्रियम् इति स्वीकरोतु, घ्राणेन्द्रियेण गन्धस्य ज्ञानं भवति खलु, प्रत्यक्षज्ञानं भवति. तर्हि अत्र चक्षुः, पूर्वं चक्षुः आसीत्, अत्र रूपम् आसीत् खलु, किन्तु इदानीं किमस्ति, तथा एव चित्रम् अस्ति किन्तु रूपं स्थाने गन्धः अस्ति, चक्षुः स्थाने घ्राणेन्द्रियम् अस्ति. तर्हि घ्राणेन्द्रियं गन्धस्य प्रत्यक्षज्ञानं जनयति खलु, नाम गन्धविषयकं ज्ञानं केन इन्द्रियेण भवति,
घ्राणेन्द्रियेण.
घ्राणेन्द्रियेण गन्धविषयकं ज्ञानं इत्युक्ते गन्धे किमस्ति, विषयता अस्ति खलु, विषयता निरूपितविषयिता ज्ञाने अस्ति. अपि एतद् ज्ञानम् इन्द्रियेण लब्धं ज्ञानं खलु, घ्राणेन्द्रियेण लब्धं ज्ञानम् अथवा प्रत्यक्षम् इति नामकरणं खलु. तर्हि एतत् प्रत्यक्षज्ञानं केन इन्द्रियेण लब्धं, घ्राणेन्द्रियेण. अतः प्रत्यक्षं ज्ञानं कार्यमस्ति अथवा जन्यमस्ति. जनकः अस्ति घ्राणेन्द्रियं. तर्हि घ्राणेन्द्रियं घ्राणादि इन्द्रियं, घ्राणेन्द्रियं निष्ठजनकता इति आरभ्य इदानीं गन्धः पर्यन्तं गच्छतु.
घ्राणादि इन्द्रियजन घ्राणादि इन्द्रियनिष्ठजनकता, परन्तु अत्र आदि आवश्यकं घ्राणेन्द्रियनिष्ठजनकता निरूपित जन्यताश्रय प्रत्यक्षज्ञान निष्ठविषयता निरूपित प्रत्यक्षज्ञान निष्ठविषयिता निरूपित विषयताश्रय गन्धः
इति अस्ति. नाम गन्धः घ्राणेन्द्रियेण तत्र ग्राह्यते, नाम तत्र ग्राह्यः अस्ति, गन्धः घ्राणग्राह्यः अस्ति, प्रत्यक्ष तस्य प्रत्यक्षज्ञानं घ्राणेन्द्रियेण भवति. रूपस्य भवति वा घ्राणेन्द्रियेण रूपस्य प्रत्यक्षज्ञानं भवति वा? अतः प्रत्यक्षं ज्ञानं घ्राणेन्द्रियेण यत्किमपि प्रत्यक्षज्ञानं भवति तस्मिन् विषयः रूपं न भवति खलु. गन्धः विषयः भवितुम् अर्हति, घ्राणेन्द्रियस्य प्रत्यक्षज्ञानविषयः गन्धः भवितुम् अर्हति, किन्तु रूपं प्रत्यक्षज्ञानस्य विषयः न भवति. विषयः न भवति इत्युक्ते तस्मिन् एतादृशी विषयिता, एतत् सर्वं यद् वदामः तादृशी विषयिता विषयता रूपे नास्ति खलु. यद् प्रत्यक्षज्ञानं घ्राणेन्द्रियेण प्राप्तं प्रत्यक्षज्ञानं तस्मिन् विषयः गन्धः भवति, किन्तु कदापि रूपं न भवति. अतः विषयता प्रत्यक्षज्ञाननिष्ठविषयिता निरूपितविषयता गन्धे अस्ति, किन्तु सा विषयता रूपे नास्ति. रूपे नास्ति इत्युक्ते विषयतायाः अभावः रूपे अस्ति खलु. अतः अभावः, तस्य अभावः रूपे अस्ति इत्युक्ते घ्राणेन्द्रियेण रूपं ग्राह्यं नास्ति, घ्राणग्राह्यं रूपं नास्ति, किन्तु गन्धः घ्राणग्राह्यः अस्ति.
अर्थात् घ्राणेन्द्रियेण यत् गन्धः गृहीतः तस्य गन्धस्य विषयता अभावः रूपे अस्ति.
न न न न न गन्धः विषयता विषयता गन्धे अस्ति, नाम एषः भागः वदति गन्धस्य प्रत्यक्षज्ञानं घ्राणेन्द्रियेण भवति. इदानीम् एषः भागः त्यजतु, यदि तद् नास्ति चेत् इति चिन्तयतु तत्र एकनिमिषः तत्र यदा आवश्यकं तदा न भवति. अस्तु एकनिमिषं भगिनि. हा हा अस्तु. अस्तु एकनिमिषं भगिनि. अस्तु एतत् कुर्मः तर्हि. हा एतत् नास्ति इति चिन्तयतु भगिनि. इदानीं किमस्ति चित्रे? किमस्ति गृहणी भगिनि? मृणालिनी भगिनि अस्ति वा?
आमामामाम् वदामि. घ्राणिन्द्रियनिष्ठजनकता निरूपितजन्यताश्रय प्रत्यक्षज्ञान निष्ठविषयता निरूपित विषयिता पुनः ज्ञाननिष्ठ प्रत्यक्षज्ञाननिष्ठ विषयिता निरूपित विषयताभाव रूप रूपे
भगिनि तत्र स्पीकर् फोन् अस्ति चेत् क्लेशः भवति भगिनि. हा नाम तत्र विषयः गन्धः विषयः भवितुम् अर्हति किन्तु रूपं विषयः कदापि न भवति. घ्राणेन्द्रियजन्यं प्रत्यक्षज्ञानं यदस्ति तस्मिन् रूपं कदापि विषयः न भवति. नाम विषयता प्रत्यक्षज्ञानविषनिष्ठविषयिता निरूपितविषयता रूपे कदापि न भवति. यदा एतत् प्रत्यक्षज्ञानं घ्राणेन्द्रियेण जन्यम् अस्ति इति अस्ति. तत्र अवगमनम् अभवत् न वा इति मम शङ्का अस्ति. पश्यामः अग्रिमे तत्र द्रक्ष्यामः अग्रिमे वर्गे. किन्तु इदानीं तत्र अस्माकं तत्र रूपस्य प्रथमगुणः अस्ति. प्रथमगुणः रूपम् अस्ति. रूपस्य लक्षणवाक्यं किम् इत्युक्ते तत्र चक्षुर्मात्रग्राह्यगुणः रूपम् इति. चक्षुर्मात्रग्राह्यः गुणः रूपम् इति अस्ति. अत्र प्रश्नः तत्र अग्रिमे वर्गे द्रक्ष्यामः. अत्र अस्मिन् लक्षणवाक्ये कति दलानि सन्ति, तत्र दलद्वयं वा दलत्रयं वा इति चिन्तनं भवेत्. अपि तत्र मनसः लक्षणस्य चित्रमपि गृहपाठरूपेण सर्वे प्रेषयन्तु. अस्तु तर्हि समयोपि जातः. किन्तु वयं तत्र किञ्चित् अग्रे आगतवन्तः अतः समीचीनमेव अस्ति. अतः तत्र अग्रिमे सप्ताहे अतः आरभ्य तत्र चक्षुः प्रत्यक्षं रूपम् अद्य यत् चित्रमस्ति ततः आरभ्य अग्रिमे वर्गे चर्चा भवति. अस्तु तर्हि नमस्कारः, धन्यवादः. अग्रिमे वर्गे मिलामः.
धन्यवादः महोदय.
धन्यवादः.
धन्यवादः महोदय.